एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राजनीतिक दलैः समानुपातिक निर्वाचन प्रणाल्याः पक्षतो निर्वाचितव्यानाम् प्रत्याशिनाम् नामानि ह्यो निर्वाचन आयोगे परामृष्टानि सन्ति। नेकपा एमाले दलेन प्रतिनिधिसभाया सदस्यानाम् कृते आदिवासी जनजातीनाम्, महिलादिवासीनाम्, खसार्य पुरूषाणाम्, खसार्य महिलानाम्, थारू महिलानाम्, दलित पुरूषाणाम्, दलित महिलानाम्, मधेसी पुरूषाणाम्, मधेसी महिलानाम्, मुस्लिम वर्गस्य च पक्षतो नामानि प्रस्तुतानि सन्ति। नेपाली कांग्रेस दलेन प्रतिनिधि सभायै त्रयाणाम् पुरूषाणाम्, उनत्रिंशतो महिलानाम् च नामानि प्रस्तुतानि सन्ति। कांग्रेस दलेन आदिवासी जनजातीनाम्, खसार्य महिलानाम्, मधेसी वर्गस्य, दलितानाम्, थारू वर्गस्य, मुस्लिम वर्गस्य च पक्षतो नामानि परामृष्टानि सन्ति। नेकपा माओवादी केन्द्रेण समानुपातिक पक्षतो निर्वाचितव्यानाम् चतुर्दश जनानाम् नामानि निर्वाचन आयोगे प्रस्तुतानि वर्तन्ते। राष्ट्रिय स्वतन्त्र दलेन त्रयोदश जनानाम् नामानि परामृष्टानि सन्ति। एवमेव जनमत दलेनापि षण्णाम् जनानाम् नामानि निर्वाचन आयोगे अर्पितानि सन्ति। प्रधानमन्त्री शेरबहादुर देउवा सर्वकारेण द्वन्द पीडितानाम् याचनायाः शीघ्रम् सम्बोधनत्वेन पीडितानाम् परिवारेभ्यः यथाशीघ्रम् न्यायः प्रदास्यते इति प्रतिबद्धताम् व्यनक्ति। चतुस्सप्ततितमान्तर राष्ट्रिय मानवाधिकारस्य दिवसस्य अवसरे राष्ट्रिय मानवाधिकार आयोगेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री देउवा द्वन्द पीडितानाम् परिवारेभ्यः यथाशीघ्रम् न्यायम् प्रदातुम् सर्वकारः सचेष्टोऽस्तीति अवोचत। मन्त्री देवा राष्ट्रिय मानवाधिकार आयोगस्य कार्यम् प्रशंसन् आयोगस्य समस्यानाम् वेदनायाश्च सम्बोधनाय प्रतिबद्धताम् व्यक्तवान्। कार्यक्रमे आयोगस्य अध्यक्ष तपबहादुर मगर सशस्त्र द्वन्द्वकालिकेभ्य पीडित जनेभ्य न्याय अनिश्चित जायमानोस्तीति वेदनाम् प्रकटितवान् आसीत्। कार्यक्रमे डाक्टर गौरी शंकरलाल दासः, प्रतिमा गुरूङ च स्वर्गीय दयाराम स्मृति सम्मानेन सम्मानिते आस्ताम्। कालीकोट जनपदस्य सान्नी त्रिवेणी ग्रामपालिकायाः प्रथम वडा क्षेत्रवर्तिनी अदेरी खोला भृगौ ह्यो डोजर यानम् दुर्घटितम् सद त्रयो मृताः, त्रयो जनाः कर्णाली नद्याम् विलुप्ताश्च सन्ति। फुकोट कर्णाली जलविद्युत आयोजनायाः कार्यम् कुर्वत् डोजरयानम् कर्णाली नद्याम् निपतितम् सद कालीकोट जनपदस्यैव सान्नी त्रिवेणी ग्रामपालिकायाः प्रथम वडा क्षेत्रस्य त्रिंशद् वर्षीयः चरित्र सार्की, षोडश वर्षीयो युवराज बुढा, रासकोट ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य द्वाविंशति वर्षीयो मिलन साई च मृताः इति कालीकोट जनपद प्रहरी कार्यालयो ज्ञापयति। दुर्घटनायाम् चालकः अछाम जनपदस्य कमल सोडारी, सान्नी त्रिवेणी ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य उनविंशति वर्षीय उमेश गिरी, चतुर्दश वर्षीयो रक्तिम कार्की च नद्याम् विलुप्ताः सन्तीति प्रहरी नायब उपरीक्षकः जयेश्वर रिसालः असूचयत। दुर्घटनायाम् गभीरेण आहतयोः खाडा चक्रनगर पालिकायाः एकादश वडा क्षेत्रवर्तिनः बरातो गाउँ स्थानस्य चतुर्दश वर्षीय आशिष भारती, विकास भारती च स्थिति च असौ ज्ञापितवान्। आहतयोर जनयोर कालीकोट जनपद चिकित्सालये उपचारः विधीयमानोस्तीति प्रहरी सूचयति। उपराष्ट्रपते नन्दबहादुर पुन गदती पर्वतीय पर्यटने नेपालस्य प्रचुर सम्भावना वर्तते। विश्व पर्यटन दिवसस्य अवसरे नेपाल पर्वतारोहण संघेन पोखरा वर्तिनी अन्तर्राष्ट्रिय पर्वतीय संग्रहालय आयोजितम् सप्तमम् पर्वतीय महोत्सवम् ह्य उद्घाटयन् उपराष्ट्रपते पुन पर्वतीय पर्यटनस्य बह्वी सम्भावना अधुनापि उपयोक्तुम् सक्तम् नास्तीति अवोचत। उपराष्ट्रपते पुन प्रकृतेः संस्कृतीनाम्, विभिन्न जातीनाम्, भाषा भाषिणाम् च विविधताः अस्माकम् सम्पदः सन्तीति हेतोः एतेषाम् यथाशक्ति उपयोगाय बलम् प्रादात्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः कथयति प्रतिनिधिसभायाम् अपेक्षित परिणामस्य प्राप्तेः कारणम् अन्विष्यते। नेपाल राष्ट्रिय कर्मचारी महासंघस्य पञ्चदशस्य स्थापना दिवसस्य अवसरे ह्य आयोजिते कार्यक्रमे अध्यक्ष प्रचण्ड प्रदेश सभासु गत निर्वाचनस्यैव परिणाम प्राप्त सन्नपि प्रतिनिधि सभायम् अपेक्षित परिणामस्य अप्राप्ते कारणम् अन्विष्य दलेन उचितं समाधानं करिष्यते इत्यवोचत। अध्यक्ष प्रचण्ड प्राप्त परिणाम हि नैराश्येन चिन्तया च विना आगामी दिनेषु दायित्ववाहिना आत्मसमीक्षां विदाय रूपान्तरणाय दृढतया अग्रे वर्धनीयमिति प्रत्यपादयत। कार्यक्रमे ऊर्जो जल स्रोत सिंचन मन्त्री पम्फा भूषाल राष्ट्रिय योजनायोगस्य पूर्वोपाध्यक्ष मीनबहादुर श्रेष्ठश्च जनापेक्षाया अनुसारेण समयानुकूलतया च कार्याणि विधातुं कर्मचारी प्रशासनम् अनुरुन्धाम। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष पूर्व प्रधानमन्त्री च माधव कुमार नेपाल भाषते जनतया निर्वाचितैः प्रतिनिधिभिः आत्मानं जनतां च प्रति दायित्ववायुभिः कार्याणि कर्तव्यानि। ह्य भक्तपुरस्य सूर्य विनायक स्थाने नवनिर्वाचितेभ्य प्रतिनिधि सभायाः प्रदेशसभानां च सदस्येभ्य वर्धापनं शुभकामनां च प्रदातुम् आयोजिते कार्यक्रमे अध्यक्षो नेपाल जनाकांक्षायाः अनुसारेण कार्याणि विधातुं निरदिशत। अध्यक्षो नेपाल राजनीतिक परिवर्तनेन सहैव अतःपरम् आर्थिक परिवर्तनस्य विकासस्य च दायित्वस्य पूरणाय बलं प्रादात्। नेकपा एमाले दलेन स्थायी समितेः सदस्यो घनश्याम भूषाल प्रभुशाहस्य दलात् निष्कासितौ स्तः। ललितपुरस्य च्यासल स्थिते दलस्य मुख्य कार्यालये ह्य उपविष्टेन सचिवालयोपवेशेन निर्वाचने दलस्य गतिविधि विरोधिनि कार्याणि कृतानीति निगद्य भूषाल साहस्य दलात् निष्कासितौ इति एमाले प्रचार विभाग प्रमुख पृथ्वी सुब्बा गुरूङ अज्ञापयत। दलेन रौतड जनपदस्य उपेन्द्र शाह कुन्दन कुशवाहश्च सिरा जनपदस्य रामप्रीत राम सर्लाई जनपदस्य बद्री न्यौपाने रीता शाहश्च दाङ जनपदस्य गंगा चौधरी महोत्तरी जनपदस्य बहादुर बलम्पाखी च केन्द्रीय सदस्यात् निष्कासिताः सन्तीति असौ अबोधयत। एवमेव दलस्य केन्द्रीय परामर्शदाता ताप्लेजुङ जनपदाभिजनः वाङदे शेर्पा कञ्चनपुरस्य खेम सुवेदी भक्तबहादुर अधिकारी च कैलाली जनपदस्य लक्ष्मी शाह दलस्य समानुपातिक सूच्यां संस्थाय अपि दल विरोधी गतिविधिषु संलग्नताम् आलक्ष्य जैतुन खातुन च दण्डिताः सन्तीति प्रचार विभाग प्रमुख गुरूङ ज्ञापितवान। नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य शंकर भण्डारी कथयति वर्तमान गठबन्धनेन आगामी पञ्च वर्षावधि स्थातव्यम्। तनौ जनपदस्य दमौली स्थाने आयोजिते कार्यक्रमे केन्द्रीय सदस्य तनौ जनपदस्य द्वितीय निर्वाचन क्षेत्रस्य नवनिर्वाचित प्रतिनिधिसभाया सदस्यश्च भण्डारी निर्वाचने अपेक्षाया अनुसारेण मतानि अप्राप्तानि सन्त्यपि गठबन्धनम् न त्रोटनीयम् इति धारणां व्यक्तवान्। केन्द्रीयानुगमन मूल्यांकन समित्या सिंहप्रासाद परिसरस्य अभ्यन्तरस्य निष्प्रयोजनानि विकृतानि च यातायात साधनानि विक्रेतुं सर्वे मन्त्रालयाः इतर अन्तर्गताः निकायाश्च निर्दिष्टाः सन्ति। मुख्य सचिवस्य शंकरदास वैरागिणः संयोजकत्वे उपविष्टेन केन्द्रीयानुगमन मूल्यांकन समितेः उपवेशेन सिंहप्रासादस्य परिसरस्य अभ्यन्तरे स्थितानां विभिन्न निकायानां जीर्ण यातायात साधनानां उचितरूपेण व्यवस्थापनाय विधेयनुसारेण अधिकाधिक मूल्येन विक्रय प्रक्रियां तत्कालम् अग्रे वर्धयितुं च सम्बद्ध निकायाः निर्दिष्टाः सन्ति इति समाचाराः।